कृपांकुरु जगन्मातरमामेवं हततेजसं गुरुशापा स्मृतिभ्रष्टं विद्याहीनं च दुःखितं ज्ञानं देहि स्मृतिं देहि विद्यां देहि देवते प्रतिष्ठां कवितां देहि शाक्तं शिष्य प्रबोधिकं ग्रन्थनिर्मिति शक्तिं च सच्छिष्यं सुप्रतिष्ठितं प्रतिभा सत्सभाया च विचार क्षमता शुभा लुप्ता सर्वान् दैववशान्नवं कुरु पुनः पुनः यथाङ्कुरं जनयति भगवान् योगमायया ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी सर्वविद्याधिदेवी या तस्यैवान्यै नमो नमः यया विना जगत् सर्वं शश्वत् जीवन् चंदन कुंदेन्दु कुमुदाम्बोज सन्निवास वर्णादि देवी यातस्ये चाक्षराये नमो नमः विसर्ग बिंदु मात्राणां यदधिष्ठानमेव च इत्थं त्वं गीयते तद्भिर्भारते नमो नमः यया विना अत्र संख्या कृत् संख्यां कर्तुं न शक्नुते काल संख्या स्वरूपा यातस्ये देवे श्रीकृष्ण ईश्वर उवाच सचतम स्तौहि वाणीमिति प्रजापते स चतुष्टावतां ब्रह्मा चाज्ञया परमात्मनः चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् यदा प्रणतं पप्रच्छज्ञानमेको वसुन्धरा बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुम् अक्षमः तदा त्वां च चतुष्टावसन्त्रस्तकश्यपाज्ञया ततश्चकार सिद्धान्तं निर्मलं ब्रह्मभञ्जनम् व्यासः पुराणसूत्रं तप प्रक्षवान् किं यदा मौनीभूतः सतस्मार त्वामे जगदम्बिकाम् तदा चकार सिद्धान्तं सत्वरेण मुनीश्वरः स प्राप निर्मलं ज्ञानं प्रमा कृष्णकलोद्भव त्वां शिशेवे च दध्योतं शतवर्षव च पुष्करे तदस्तो वरं प्राप्य च कविन्द्रो बभूवः तदा वेदविभागं च पुराणानि चकारः यदा महेन्द्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवं क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभु महेन्द्रस्य बृहस्पतिम् कीर्तं वर्षसहस्रं शततोऽं वज्जल् चपस्करो वेदाङ्गतो वरम् सङ्गरीतं वर्षसहस्रकम् उवाच सप्तशास्त्रं शपदर्थम् दशमेश्वरम् हट्टाभिवासयै शिष्टाचैरभिकर्णुभीश्वरैः एष पापणि पञ्चिन्त्य प्रवर्तन्ते सुरेश्वरि च मुनीन्द्रमनुमानरै दैत्यैश्चैतं मा विष्णुशिवादि समीभूतः सहस्राश्व पञ्चवस्तस्य पुरमुखः यान् सोऽपि महन् सोमिकामेकास्ते नुरानवः वेत्तन्ताया कुवर्षश्च भक्तिर प्रातदन्दरः I'm वर्षवीकं च यः पते स्वपन्दि पश्चमेधा वेसु कविश्च प्लवेत्तवु